गणपतिगुं हवामहे कविं कवीनामुपमश्रवस्तमम् ज्येष्ठराजम् ब्रह्मणाम् ब्रह्मणस्पत आनशृण्वन् नोतिभिः स्वेदसादनम् प्रणो देवी सरस्वती वाजिनीवते धीरामवित्रयवतु गणेशाय नमः सरस्वत्यै नमः श्रीगुरुभ्यो नमः हरि ॐ नमो भगवते रुद्राय ॐ नमस्ते रुद्रमन्यव उतोत इषवे नमः नमस्ते अस्तु धन्वने बाहुभ्यामुतते नमः यात इष शिवतमा शिवम् बभूवते धनुः शिवाशरव्याय तवतया नो रुद्रमृणया या ते रुद्र शिवा तनोरघोरा पापकाशिनी तया नस्तनुवाशन्तमया गिरिशन्ताभिचाकशीः यामिषुम् गिरिशन्तहस्ते विवश्यस्तवे शिवाम् गिरित्रताम् कुरु वायुगुंसि पुरुषम् जगत् शिवेन वचसा त्वा गिरिसाच्छावरामसि यथा नः सर्वमिज्जगत यक्ष्मगुम् सुमना असत् अध्यवोचददि वक्ता प्रथमो दैव्योऽभिषक् अयेगश्च सर्वान् जम्बयन् सर्वान् स यातु धान्यः असौ यस्ताम्रो अरुण उत वब्रस्वमङ्गलः ये चेमागुम् रुद्रा अभितो दिक्षश्रुता सहस्रशो वैशागुम् हेड इवहे असौ यो वसर्पति नीलग्रीवो विलोहितः उतैनम् गोपा अदृशन्नदृशन्नुदहार्यः उतैनम् विश्वा भूतानि सदृष्टो मृडयातिनः नमो अस्तु नीलग्रीवाय सहस्राख्याय मीडुषे अथो ये अस्य सत्त्वा द्रोहम् तेभ्यो करन्नमः प्रमुञ्च धन्वनस्त्वमुभयोरात्रयोज्याम् याश्च ते हस्त इषव पराता भगवो वप अवतत्य धनुस्त्वगुम् सहस्राक्षशतेषु दे निशील्य शल्यानामुखा शिवो न सुमना भव निर्जम् धनुः कपर्दिनो विशल्यो बाणवागुम् उतान् अनेशन्नस्येशव आहुलस्य निषङ्गतिः या ते हेतिर्मे दुष्टमास्ते बभूवते धनुः तया स्मान् विश्वनस्त्वमयक्ष्मया परिभुज नमस्ते अस्त्वायुधाय नाथताय दृष्टवे उमाभ्यामुत ते नमो बाहुभ्याम् तव धन्वने परिते धन्वनो हेतिरस्मान् वृणक्तु विश्वतः अथो यैष्वस्तवारे अस्मन्निदेहितम् नमस्ते अस्तु भगवन् विश्वेश्वराय महादेवाय त्र्यम्बकाय त्रिपुरान्तकाय त्रिकाग्निकालाय कालाग्निरुद्राय नीलकण्ठाय मृत्युञ्जयाय सर्वेश्वराय सदाशिवाय श्रीमन्महादेवाय नमः नमो हिरण्यबाहवे सेनान्ये दिशाम् च पतये नमो नमो वृक्षेभ्यो हरिकेशेभ्यः पशूनाम् पतये नमो नमः तस्मिन् जराय श्रीमते पतीनाम् पदये नमो नमो बभ्लुषाय विव्याधिने नानाम् पदये नमो नमो हरिकेशायोपवीतिने पुष्टानाम् पदये नमो नमो भवस्य हेत्यै जगता पदये नमो नमो रुद्राय तथा विनिक्षेत्रानाम् पदये नमो नमः सोताय हन्त्याय यवनानाम् पदये नमो नमो रोहिताय तपतये वृक्षाणाम् पदये नमो नमो मन्त्रिणे वाणिजाय कक्षानाम् पदये नमो नमो भुवन्तये वारिवस्कृताय औषधीनाम् पदये नमो नम उच्चये दोषाय क्रन्दयते पत्तीनाम् पदये नमो नमः कृष्णवीताय धावते सत्त्वनाम् पदये नमः नमस्सहमानाय निव्याधिन आव्याधिनीनाम् पदये नमो नमः ककुभायणि सङ्गिणे एस्तेनानाम् पदये नमो नमो निषङ्गिण इषु धिमते तस्कराणाम् पदये नमो नमो वञ्चते परिवञ्चते स्थायूनाम् पदये नमो नमो निचेरवे परिचरायारण्यानाम् पदये नमो नमः सृकाविभ्यो जिगागुं सद्भ्यो मुष्णताम् पदये नमो नमो शिवद्भ्यो नक्रं चरद्भ्यः प्रकृन्तानाम् पदये नमो नम उष्णीषिणे गिरिचराय कुलुञ्जानाम् पदये नमो नम यशुमद्भ्योदन्भाविभ्यश्च वो नमो नम आतन्मानेभ्य प्रतिरथानेभ्यश्च वो नमो नम आयच्छद्भ्यो विसृजभ्यश्च वो नमो नमो शिरद्भ्यो विद्यभ्यश्च वो नमो नम आसीनेभ्य शयानेभ्यश्च वो नमो नम स्वमद्भ्यो जाग्रभ्यश्च वो नमो नम तिष्ठद्भ्यो दावभ्यश्च वो नमो नम सवाव्यः सवापतिभ्यश्च वो नमो नमो अश्वेभ्यो अश्ववदिभ्यश्च वो नमः नम आव्याधिनेभ्यो विविध्यन्ति व्यश्च वो नमो नम उगणव्यस्त्रिगुं हतेभ्यश्च वो नमो नमो गृत्सेभ्यो गृत्सवतिभ्यश्च वो नमो नमो व्रातेभ्यो व्रातपतिभ्यश्च वो नमो नमो गणेभ्यो गणपतिभ्यश्च वो नमो नमो विरूपेभ्यो विश्वरूपेभ्यश्च वो नमो नमो महद्भ्यः क्षुल्लकेभ्यश्च वो नमो नमो रतेभ्यो रतेभ्यश्च वो नमो नमो रतेभ्यो रतपतिभ्यश्च वो नमो नम सेनाभ्यस्सेनानिभ्यश्च वो नमो नमः क्षत्रुभ्यः सङ्ग्रहीतृभ्यश्च वो नमो नम दक्षभ्यो रथकारेभ्यश्च वो नमो नम कुलालेभ्यः कर्मारेभ्यश्च वो नमो नम पुण्यष्टेभ्यो निषादेभ्यश्च वो नमो नम इषुग्रभ्यो धन्वग्रभ्यश्च वो नमो नमो मृगयोभ्यश्वनेभ्यश्च वो नमो नम स्वभ्यश्ववदिभ्यश्च वो नमः नमो भवाय च रुद्राय च नमः सर्वाय च वसुमतये च नमो नीलग्रीवाय च शितिकण्ठाय च नमः कवर्णिने च युक्तकेशाय च नमः सहस्राक्षाय च शतधन्वने च नमो गिरिशाय च शिविष्टाय च नमो मेरुष्टवाय चेशुवते च नमो ह्रस्वाय च वामनाय च नमो बृहते च वर्षेयसे च नमो वृद्धाय च संवृद्धने च नमो अग्र्याय च प्रथमाय च नमः आशवे चाजिराय च नमः शेग्र्याय च शेव्याय च नमः ऊर्याय च वस्वन्याय च नमः स्रोतस्याय च द्वेप्याय च नमो ज्येष्ठाय च कनिष्ठाय च नमः ऊर्वजाय च परजाय च नमो मध्यमाय च अगल्भाय च नमो जगत्याय च बुद्धियाय च नमः सोऽप्याय च व्रतिसर्याय च नमो याम्याय च क्षेम्याय च नमः उर्वर्याय च खल्याय च नमः श्लोक्याय च वसान्याय च नमो वन्याय च कक्ष्याय च नमः श्रवाय च प्रतिश्रवाय च नमः आशुषेणाय चाशुरताय च नमः शोलाय च वविन्दते च नमो वर्मिणे च वरोधिने च नमो भिल्मिने च कवचिने च नमः श्रुताय च श्रुतसेनाय च नमो दन्दुभ्याय च अनन्याय च नमो विष्णवे च प्रमुषाय च नमो नूताय च प्रहिताय च नमो निषङ्गिणे चेशुधिमते च नमः तीक्ष्णेशवे चायुधिने च नमः स्वायुधाय च सुधन्वने च नमः श्रुत्याय च वत्याय च नमः कात्याय च नीप्याय च नमः चोद्याय च सरस्याय च नमो नाद्याय च वैशन्ताय च नमः कोप्याय च वट्याय च नमो वर्ष्याय च वश्याय च नमो मेघ्याय च विद्युत्याय च नमः इन्द्रियाय च तप्याय च नमो वात्याय च रेश्म्याय च नमो वास्तव्याय च वास्तुपाय च ॐ
हर 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 ॐ नमः सोमाय च रुद्राय च नमः ताम्राय च अरुणाय च नमः शङ्गाय च पशुपतये च नमः उग्राय च भीमाय च नमो अग्ने वदाय च दूरे वदाय च नमो हन्त्रे च नीयसे च नमो वृक्षेभ्यो हरिकेशेभ्यो नमस्ताराय नमः शम्भवे च मयोभवे च नमः शङ्कराय च मयत्कराय च नमः शिवाय च शिवतराय च नमस्तेत्याय च कोल्याय च नमः पार्याय च वार्याय च नमः प्रतरणाय चोत्तरणाय च नमः आतार्याय च लाद्याय च नमः षष्ट्याय च वेद्याय च नमः चिकत्याय च प्रवाह्याय च नमः हिरण्याय च प्रवत्याय च नमः हिगुंशिराय च क्षयणाय च नमः कवर्णिने च कुलस्तये च नमो गोष्ठ्याय च गृह्याय च नमः स्थल्प्याय च गेह्याय च नमः काट्याय च गह्वरेष्ठाय च नमो हृदयाय च निवेश्याय च नमः पागुंसव्याय च रजस्याय च नमः शुष्याय च हरित्याय च नमो लोप्याय चोलप्याय च नमः
ఊర్జ్యాయ చ సూర్యాయ చ నమః పర్ణ్యాయ చ పర్ణశక్త్యాయ చ నమో పగురమానాయ చ విఘ్నతే చ నమః ఆఖ్యదతే చ ప్రఖ్యదతే చ నమో వక్రకేభ్యో దేవానాగు హృదయేభ్యో నమో విక్షేదకేభ్యో నమో విచిన్వత్కేభ్యో నమ ఆనిర్హతేభ్యో నమ ఆమీవత్కేభ్యః నాపే అంధసస్పతే దరిద్రం నీలలోహితా ఏషాం పురుషాణాం ఏషాం పశూనాం మామేర్మారోమో ఏషాం కించన మమత్ యాతే రుద్ర శివా తనో శివా విశ్వావేషజీ శివా రుద్రస్య వేషజీ తయానో మృణజీవసే ఇవాగుం రుద్రాయ తవసే కవర్ణిరే క్షయద్వీరాయ ప్రవరామహే మతిం యతా నశ్యమ సద్విమదే చతుష్పదే విశ్వం పుష్టం గ్రామే అస్మిన్ననాతురం వృణానోరుద్రోతనోమయస్కృతి క్షయద్వీరాయ నమసా విదేమతే యచ్చం చయోశ్చ మనురాయజే పితా తదశ్యామ తవ రుద్ర ప్రణీతౌ మానో మాంతముతమానో అర్వకం మాన ఉక్షంతముతమాన ఉక్షితం మానో వది పితరం మోత మాతరం ప్రియమానస్తనువో రుద్రరీరిష మానస్కోకేతన ఏ మాన ఆయుషి మాను గోషు మాను అశ్వేషురీరిష వీరాన్మానో రుద్రమామితో వదిర్హవిష్మంతో నమసా విధేమతే ఆరాత్తే గోద ఉతపోరుషందే క్షయద్వీరాయ సుం నమస్మేతే అస్సు రక్షాచ నో అదిచ దేవ ప్రూయతాచ నశ్శర్మయచ్చ ద్వివరాః సుశ్రుతం గత సంయువానం మృగన్న భీమముపహత్వముగ్రం నృణాచరిత్రేణుద్రస్తవాను అన్యంతే అస్మన్నివ పంతు సేనాః పరిణో రుద్రస్య హేతృణక్తు పరిత్వేషస్య దుర్మతిరగాయో అవస్థిరా మగవద్భ్యస్తనుష్వమీరుస్తోకాయ తనయాయ మృడయ మేడుష్టమశివతమశివో నః సుమనాభవ పరమే వృక్ష ఆయుధన్నిదాయ కృత్తిం వసాన ఆచర పినాకం విప్రగాగహే వికిరిద విలోహిత నమస్తే అస్తు భగవః యాస్తే సహస్రగుం హేతయోన్యమస్మన్నివ పంతు తాః సహస్రాణి సహస్రగా బాహోస్తవ హేతయః తాశ్రామీశానో భగవ పరాచీనాముఖాకృతి సహస్రాణి సహస్రశో యే రుద్ర హరిభూమ్యా తేషాగుం సహస్రయోజనే వదన్వాని తన్మసే అస్మిన్మహత్యన్నవేంతరిక్షే భవాని నీలగ్రీవాశ్రితి కంఠా శర్వా అదః క్షవాచరాః నీలగ్రీవాశ్రితి కంఠాదివగుం రుద్రా ఉపశ్రితాః ఏ వృక్షేషు సస్మిల్జరా నీలగ్రీవా విరోహితాః ఏ భూతానామధిపతయో విశికాసక్కవర్ణినః యే అన్నేషు వివిద్యంతి మాత్రేషు వివతో జనాన యే పతాం పతిరక్షయ ఐలవృదాయవ్యుదః యే తీర్థాని ప్రచరంతి శృకావంతో నిషంగిణః య ఏతావంతశ్చ భూయాగుంసశ్చ దిశో రుద్రావితస్థిరే తేషాగుంసా సయోజనే వర్ధన్వాని తన్మసే नमो रुद्रेभ्यो ये पृथिव्याम् ये एन्तरिक्षे ये दिवि ये सामन्नम् भातो वर्षमिषवस्तेभ्यो दश प्राचे दश दक्षिणा दश प्रतिचेर्दशो दिचेर्दशोद्वास्तेभ्यो नमस्ते नो मृणयन्तु तेयम् द्विष्मो यश्च नो द्वेष्टितम् वोजम् मे ददामि त्र्यम्बकम् यजामहे सुगन्धिम् पुष्टिवर्धनम् उर्वारुकमिव वन्दनान् मृत्योर्मुक्षेयमामृतात् यो रुद्रो अग्नव्यो अप्सु य ओषधेषु यो रुद्रो विश्वामुवना विवेश तस्मै रुद्राय नमो अस्तु एते सहस्रमयुतम् पाशा मृत्योर्मर्त्याय हन्तवे तान्यज्ञस्य मायया सर्वानवयजामहे मृत्यवे स्वाहा मृत्यवे स्वाहा प्राणानाम् ग्रन्थिरसिरत्रो मा विशान्तकः तेनान्येनाप्यायस्व नमो रुद्राय विष्णवे मृत्युर्मे पाहि तमस्तु यस्य शस्वदन्वायो विश्वस्य क्षयति मे सजस्य यक्ष्वा महेशौ मनसाय रुद्रम् नमो फिर्देवमसुरम् दुवस्य अयम् मे हस्तो भगवान् अयम् मे भगवत्तरः अयम् मे विश्वमे स यो यगुम् शिवा विवर्षनः ॐ शान्ति 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 ॐ शं च मे मयश्च मे प्रियं च मे नो कामश्च मे कामश्च मे सौ मनसश्च मे भद्रं च मे श्रेयश्च मे वस्यश्च मे यशश्च मे भगश्च मे द्रविणं च मे यन्ता च मे धत्ता च मे क्षेमश्च मे धृतिश्च मे विश्वं च मे महश्च मे संवेच्च मे ज्ञात्रं च मे सोश्च मे प्रचोश्च मे क्षीरम् च मे लयश्च ममृतम् च मे मृतम् च मे यक्ष्मम् च मे नामयच्च मे देवातुश्च मे दीर्घायुत्वम् च मे न मित्रम् च मे भयम् च मे सुगम् च मे शयनम् च मे सुषा च मे सुदिनम् च मे ॐ शान्ति 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 ॐ अत्रिनात्वा कृमे हन्मे कन्वेन जमदग्निना विश्वावसोर्ब्रह्मणा हतः कृमेनागुम् राजा अप्येषागस्तपतिर्हतः अतो माता अतो पिता अतो स्थूरा अतो क्षुद्राः अतो कृष्णा अतो श्वेताः अतो आशातिका हताः श्वेताभिः सह सर्वे हताः आहरावद्या श्रुतस्य हविषो यथा तत्सत्यम् यदमय्यमस्य जम्भयोः आदधामि तथा हि तत् कन्थन्मसि ॐ शान्ति शान्ति शान्तिः ॐ शरन्नो मित्रशं वरुणः शन्नो भवत्पर्यमा शन्न इन्द्रो बृहस्पतिः शन्नो विष्णुरुरुक्रमः नमो ब्रह्मणे नमस्ते वायो त्वमेव प्रत्यक्षम् ब्रह्मासि त्वमेव प्रत्यक्षम् ब्रह्म वदिष्यामि ऋतं वदिष्यामि सत्यं वदिष्यामि तन्मामवतो तद्वक्तारमवतो अवतु माम् अवतु वक्तारम् ॐ शान्ति शान्ति शान्तिः शिक्षां व्याख्यास्यामः वर्णस्वरः मात्राबलम् सामसन्तानः इत्युक्त क्षीक्षाध्यायः सह नौ यशः सह नौ ब्रह्मवच्चसम् अथातश्च गुम्हिताय उपनिषदम् व्याख्यास्यामः पञ्चस्वधिकरणेषु अधिलोकमधिज्योतिषमधिविद्यमधिप्रजमध्यात्मम् तामहासगुम्हिता इत्याचक्षते अताधिलोकम् पृथिवी पूर्वरूपम् द्यौरुत्तररूपम् आकाशः सन्धिः वायुः सन्धानम् इत्यधिलोकम् अदाधिज्योतिषम् अग्निपूर्वरूपम् आदित्य उत्तररूपम् आपः सन्धिः वैद्युतः सन्धानम् इत्यधिज्योतिषम् अथाधिविद्यम् आचार्यपूर्वरूपम् अन्ते वास्योत्तररूपम् विद्यासन्धिः प्रवचनगुंसन्धानम् इत्यधिविद्यम् अथाधिप्रजम् मातापूर्वरूपम् पितोरुत्तररूपम् प्रजासन्धिः प्रजननगुंसन्धानम् इत्यधिप्रजम् अथाध्यात्मम् अधराहणुपूर्वरूपम् उत्तराहणुरुत्तररूपम् वाक्सन्धिः जिह्वासन्धानम् इत्यध्यात्मम् इति मा महासगुम्हिताः य एवमेता महासगुम्हिता व्याख्याता वेदा सन्धीयते प्रजया पशुभिः ब्रह्मवच्चसेनान्नाद्येन सुवर्येण लोकेन यच्छन्दसा मृषभो विश्वरूपः छन्दोऽभ्योऽद्यमृतात् सम्बभूव समेन्द्रो मेधया स्पृणोतु अमृतस्य देवधारणो भूयासम् शरीरम् मे विचर्षणम् जिह्वा मे मधुमत्तमा कर्णाभ्याम् भूरिविश्रुवम् ब्रह्मणः कोशोऽसि मेधया पिहितः श्रुतम् मे गोपाय आवहन्ति वितन्वाना कुर्वाणाचीरमात्मनः वासागुंसि मम गावश्च अन्नपाने च सर्वदा ततो मे श्रियमावह लोमशाम् पशुभिः सह स्वाहा आमायन्तु ब्रह्मचारिणः स्वाहा विमायन्तु ब्रह्मचारिणः स्वाहा प्रमायन्तु ब्रह्मचारिणः स्वाहा दमायन्तु ब्रह्मचारिणः स्वाहा शमायन्तु ब्रह्मचारिणः स्वाहा यशोजने सानि स्वाहा श्रेयान्वस्य सोऽसानि स्वाहा तम् त्वा भगप्रविशानि स्वाहा समाभगप्रविश स्वाहा तस्मिन् सहस्रशाखे निभगाहम् त्वयि मृजे स्वाहा यथा पप्रवतायन्ते यथा मासा अहज्जरम् एवम् माम् ब्रह्मचारिणः
धातरायन्तु सर्वतत्त्वाः प्रतिवेशोऽसि प्रमाभाहि प्रमापद्यस्व भूर्भुवः सुवरिति वा एतास्मिसृ व्याहृतयः तासामुहस्मैताम् चतुर्थीम् माहाचमस्य प्रवेदयते मह इति तद्ब्रह्मा स आत्मा अङ्गान्यन्या देवताः भूरिति वा अयम् लोकः भुवरित्यन्तरिक्षम् सुवरित्यसौ लोकः मह इत्यादित्यः आदित्येन वाव सर्वे लोका महीयन्ते भूरिति वा अग्निः भुवरिति वायुः सुवरित्यादित्यः मह इति चन्द्रमाः चन्द्रमसा वाव सर्वाणि ज्योतिगुंषि महीयन्ते भूरिति वा रुचः भुव इति सामानि सुवरिति यजोगुंषि मह इति ब्रह्मा ब्रह्मणा वाव सर्वे वेदा महीयन्ते भूरिति वै प्राणः भुवरित्यपानः सुवरिति व्यानः मह इत्यन्नम् अन्नेन वाव सर्वे प्राणा महीयन्ते तावा एताश्चतस्रश्चतुर्धा चतस्रश्चतस्रो व्याहृतयः तायो वेदा स वेद ब्रह्मा सर्वे स्वै देवा बलिमावहन्ति शय एषोऽन्तरहृदय आकाशः तस्मिन्नयम् पुरुषो मनोमयः अमृतो हिरण्मयः अन्तरेण तालुके य एष स्तन इवावलम्बते चेन्द्रयोनिः यत्रासो केशान्तो विवर्तते व्यपोह्य शीर्षकपाले भूरित्यग्नौ प्रतिष्ठति भुव इति वायौ सुवरित्यादित्ये मह इति ब्रह्मणि आप्नोति स्वराज्यम् आप्नोति मनसस्पतिम् वाक्पतिश्चक्षुष्पतिः श्रोत्रपतिर्विज्ञानपतिः एतत्ततो भवति आकाशशरीरम् ब्रह्मा सत्यात्मप्राणारामम् मन आनन्दम् शान्तिसमृद्धममृतम् इति प्राचीनयोग्योपास्व पृथिव्यन्तरिक्षम् द्योदिशो वान्तरदिशाः अग्निर्वायुरादित्यश्चन्द्रमा नक्षत्राणि आप ओषधयो वनस्पतय आकाश आत्मा इत्यधिभूतम् असाध्यात्मम् प्राणोऽव्यानोपान उदार समानः चक्षुश्रोत्रम् मनोवाक्पक चर्ममागुंसग्रस्तावास्ति मज्जा एतदधिविधाय ऋषिरवोचत् पाण्डम् वा इदगुम् सर्वम् पाण्डे नैव पाण्डग्स्पृणोतीति ओमिति ब्रह्मा ओमितीदगुम् सर्वम् ओमित्येतदनुकृतिः स्वा अप्योश्रावयेत्या श्रावयन्ति ओमिति सामानि गायन्ति ओगुंशोमिति शस्त्राणि शगुंसन्ति ओमित्यध्वर्युः प्रतिगणम् प्रतिगृणाति ओमिति ब्रह्मा प्रसौति ओमित्यग्निहोत्रमनुजानाति ओमिति ब्राह्मण प्रवक्षन्नाः ब्रह्मोपाप्नवानीति ब्रह्मैवोपाप्नोति ऋतम् च स्वाध्याय प्रवचने च सत्यम् च स्वाध्याय प्रवचने च तपश्च स्वाध्याय प्रवचने च नमश्च स्वाध्याय प्रवचने च शमश्च स्वाध्याय प्रवचने च अग्नयश्च स्वाध्याय प्रवचने च अग्निहोत्रम् च स्वाध्याय प्रवचने च अतिथयश्च स्वाध्याय प्रवचने च मानुषम् च स्वाध्याय प्रवचने च प्रजा च स्वाध्याय प्रवचने च प्रजनश्च स्वाध्याय प्रवचने च प्रजातिश्च स्वाध्याय प्रवचने च सत्यमिति सत्यवचानाथीतरः तप इति तपो नित्यः पौरुषिष्टिः स्वाध्याय प्रवचने एवेति नाको मोदल्यः तद्धितपस्तद्धितपः अहम् वृक्षस्य रेरिव कीर्तिः पृष्ठम् गिरेरिव ऊर्ध्वपवित्रो वायिनीव स्वमृतमस्मि द्रविणगुंसवच्चसम् सुमेधा अमृतोक्षितः इति त्रिशङ्को वेदानुवचनम् वेदमनोच्याचार्यो अन्तेवासिन मनुषास्ति सत्यम् वद धर्मम् चर स्वाध्यायान्मा प्रमदः आचार्याय प्रियम् धनमाहृत्य प्रजातन्त्वम् मा व्यवच्छेत्सि सत्यान प्रमदितव्यम् धर्मान प्रमदितव्यम् कुशलान प्रमदितव्यम् भूत्यैन प्रमदितव्यम् स्वाध्याय प्रवचनाभ्याम् न प्रमदितव्यम् देवपितृकार्याभ्याम् न प्रमदितव्यम् मातृदेवो भव पितृदेवो भव आचार्यदेवो भव अतिथिदेवो भव यान्यनवद्यानि कर्माणि तानि सेवितव्यानि नो इतराणि यान्यस्माकम् सुचरितानि तानि त्वयोपास्यानि नो इतराणि एके चास्मत्श्रेयागुंसो ब्राह्मणाः तेषाम् त्वयासनेन प्रश्वसितव्यम् श्रद्धया देयम् अश्रद्धया देयम् श्रेया देयम् श्रेया देयम् भिया देयम् संविदा देयम् अत यदि ते कर्म विचिकित्सा वा वृत्तविचिकित्सा वा स्यात् एतत्र ब्राह्मणा सम्मर्षिणः युक्ता आयुक्ताः अलोक्षा धर्मकामा स्युः यथा ते तत्र वर्तेरन् तथा तत्र वर्तेथाः अताभ्याख्यातेषु ये तत्र ब्राह्मणा सम्मर्षिणः युक्ता आयुक्ताः अलोक्षा धर्मकामा स्युः यथा ते तेषु वर्तेरन् तथा तेषु वर्तेताः एष आदेशः एष उपदेशः एषा वेदोपनिषत् एतदनुशासनम् एवमुपासितव्यम् एवमुचैतदुपास्यम् शन्नो मित्रः शं वरुणः शन्नो भवत्वर्यमा शन्न इन्द्रो बृहस्पतिः शन्नो विष्णुरुक्रमः नमो ब्रह्मणे नमस्ते वायो त्वमेव प्रत्यक्षम् ब्रह्मासि त्वामेव प्रत्यक्षम् ब्रह्मावादिशम् ऋतमवादिशम् सत्यमवादिशम् तन्वामावीत् तद्वक्तारमावीत् आवीन्माम् आवीद्वक्तारम् ॐ शान्ति शान्ति शान्तिः ॐ ब्रह्मात्मन् वदति। सृजत तद कामयत समात्मना पद्येयेते आत्मन्नात्मन्नित्या मन्त्रयत तस्मै दशमगुं भूत प्रत्यश्रुणोत् स दशहूतो भवत् दशहूतो हवैनामैषः तम् वा एतम् दशहूतगुंसन्तम् दशहूतेत्याचक्षते परोक्षेण परोक्ष प्रिया हि वै देवाः आत्मन्नात्मन्नित्या मन्त्रयत तस्मै सप्तमगुम् भूत प्रत्यशृणोत् स सप्तहूतो भवत् सप्तहूतो हवैनामैषः तम् वा एतम् सप्तहूतगुंसन्तम् सप्तहूतेत्याचक्षते परोक्षेण परोक्षप्रिया हि वै देवाः आत्मन्नात्मन्नित्या मन्त्रयत तस्मै षष्टगुम् भूत प्रत्यशृणोत् स षड्ढूतो भवत् षड्ढूतो हवैनामैषः तम् वा एतम् षड्ढूतगुंसन्तम् षड्ढूतेत्याचक्षते परोक्षेण परोक्षप्रिया हि वै देवाः आत्मन्नात्मन्नित्या मन्त्रयत तस्मै पञ्चमगुम् भूत प्रत्यशृणोत् स पञ्चहूतो भवत् पञ्चहूतो हवैनामैषः तम् वा एतम् पञ्चहूतगुंसन्तम् पञ्चहूतेत्याचक्षते परोक्षेण परोक्षप्रिया हि वै देवाः आत्मन्नात्मन्नित्या मन्त्रयत तस्मै चतुर्थगुम् भूत प्रत्यशृणोत् स चतुर्भूतो भवत् चतुर्भूतो हवैनामैषः तम् वा एतम् चतुर्भूतगुंसन्तम् चतुर्भूतेत्याचक्षते परोक्षेण परोक्षप्रिया हि वै देवाः तमब्रवीत् त्वम् वै मे नेदिष्टगुम् भूत प्रत्यश्रौषेः त्वयेनाख्यातार इति तस्मान्नुहैनागुश्चतुर्होतार इत्याचक्षते तस्माच्छुश्रोष पुत्रानागुम् हृद्यतमः नेदिष्टो हृद्यतमः नेदिष्टो ब्रह्मणो भवति य एवम् वेद आत्मने नमः ॐ शान्ति शान्ति शान्तिः राजाधिराजाय प्रसय्य साहिने नमो वयम् वै श्रवणाय कुर्महे शमे कामान् कामकामाय मह्यम् कामेश्वरो वै श्रवणो ददातु कुबेराय वै श्रवणाय महाराजाय नमः ॐ तद्ब्रह्मा ॐ तद्वायुः ॐ तदात्मा ॐ तत्सत्यम् ॐ तत्सर्वम् ॐ तत्पुरोर्नमः अन्तश्चरति भूतेषु गुहायाम् विश्वमूर्तिषु त्वम् यज्ञस्त्वम् वषट्कारस्त्वमिन्द्रस्त्वगुम् रुद्रस्त्वम् विष्णुस्त्वम् ब्रह्मत्वम् प्रजापतिः त्वम् तदाप आपो ज्योतिरसोऽमृतम् ब्रह्मभूर्भुवः सुवरो स्वस्ति प्रजाभ्यः परिपालयन्ताम् न्यायेन मार्गेण महीम् महिषाः गोब्राह्मणेभ्यः शुभमस्तु नित्यम् समस्तलोकाः सुखिनो भवन्तु समस्तलोकाः सुखिनो भवन्तु समस्तलोकाः
sukhino bhavantu. Om shanti shanti shanti.